श्रुत्वा भरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् रथन्नवदनम् ध्यायेत् सर्वविघ्नोपशान्तये यस्य द्विरत्राद्याः पारिषद्याः परशतम् विघ्नम् निघ्नन्ति सततम् विश्वक्सेनम् तमाश्रये व्यासम् वसिष्ठनप्ताम् शक्तेः पौत्रमकल्मषम् महाशरात्मजम् वन्दे सुखतातम् तपोनिधिम् व्यासाय विश्वरूपाय व्यासरूपाय विष्णवे नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः
प्रणो
देवी सरस्वती वाजे गर्भाजिनीवती धीनामभिद्यवतु
तैत्तरीयसंहितान्तर्गत कृष्णयजुर्वेदसंहित प्रथमकाण्डप्रारम्भः ॐ
श्रीगुरुभ्यो नमः हरिः ॐ गणानाम् त्वा गणपतिम् हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पदान शृण्वन्नोतिभिश्चीरसादनम् ॐ महागणपये नमः ेर्त्वायवस्थो पायवस्थ देवो वः सविता प्रार्थयतु श्रेष्ठतमाय कर्मण आप्यायध्वमग्निया देव भागमूर्जस्वते पयस्वते प्रजातीरणमेवायक्ष्मामावस्थे नदीशतमाघशगुंसो रुद्रस्य हेतः परिवावृणक्तुध्रुवा अस्मिन् गोपदौ स्यात् बह्वे यजमानस्य पशून् पाहि।